इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा. अथ वार्ताः. वित्तमन्त्री पदासीना निर्मला सीतारमणवर्या सबलं प्रतिपादितवती यत् प्रशासनम् आजीविकोत्पादनाय अक्षम प्रधान क्षेत्रेषु सूक्ष्म लघु मध्यमोद्योगेषु सहैव सुदृढ आधारभूत अवसंरचनायाः निर्माणे केन्द्रीभूतमस्ति. केन्द्रीय मन्त्री ह्यः लोकसभायाम् अस्य वर्षस्य वित्त संकल्पना पत्रकम् आलक्ष्य प्रचलितायाः चर्चायाः अन्तर्गतम् एकस्मिन् प्रश्नस्य प्रत्युत्तरे स्वीय वक्तव्यमिदं प्रदत्तवती.
In building infrastructure. Now it's not just roads, it's not just national highways, it's also looking at waterways so that the cost of logistics in this country can come down and states which are very much in the hinterland, not connected to any seaport, will have the advantage of moving goods faster at a lesser cost.
वित्तमन्त्रिणा अस्य मासस्य प्रथमे दिनांके संसदि केन्द्रीय वित्त संकल्पना पत्रकम् प्रस्तुतम्. संसदीय कार्यमंत्री किरेन रिजिजू उक्तवान् यत् भाजपा दलं लोकसभायां राहुल गांधीनं विरुध्य केन्द्रीयाय व्यय पत्रकम् अधिकृत्य चर्चावधौ उदीरितान् मिथ्यारोपान् विरुध्य प्रिविलेज नोटिस इति संचेतनां प्रख्यापयिष्यति. मंत्री संसद परिसरे वार्ताहरैः सह संवादम् अकरोत्. रिजिजूवर्यः कांग्रेस नेतारं भृशं कट्वालोचितं यत् कांग्रेस नेता प्रधानमन्त्रिणं नरेन्द्र मोदिनं विरुध्य मिथ्यारोपम् आरोपयति इति. लोकसभाध्यक्षस्य ओम बिरला वर्यस्य निष्कासनार्थं कांग्रेस दलस्य नेतृत्वयुतैः दलैः प्रदत्तस्य अविश्वास प्रस्तावस्य सूचनायां वित्त संकल्पना पत्रक सत्रस्य द्वितीये चरणे विचारं भविष्यति. अस्य सत्रस्य द्वितीय चरणं मार्च मासस्य नवम दिनांकादारभ्य अप्रैल मासस्य द्वितीय दिनांकं यावत् प्रचलिष्यति. प्रधानमंत्री नरेन्द्र मोदी रॉल्स रॉयल संस्थानस्य मुख्य कार्यकार्यधिकारिणा तूफान एर्गिन बिल्जिक इत्यनेन सह मेलनम् अकरोत्. सामाजिक संचार पटले एकस्मिन् संदेशे श्रीमोदिना लिखितं यत् भारते स्वस्य कार्याणां संवर्धनाय रॉल्स रॉयल संस्थानस्य उत्साहस्य अथ राष्ट्रस्य नवानवेशिभिः गतिशीलैः च युवकैः सह सहभागितायै भारतं स्वागतं करोति इति. इजराइल देशस्य प्रधानमंत्री बेंजामिन नेतन्याहु ह्यः रात्रौ व्हाइट हाउस इत्यत्र अमेरिकायाः राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यमुना सह मेलनम् अकरोत्. उपवेशनमिदं त्रिहोरा यावत् प्रचलितम्. तदनन्तरं इजराइल देशस्य प्रधानमंत्री कामपि टिप्पणी न प्रदत्तवान. बांग्लादेशे अतिसुरक्षायाः मध्ये अद्य राष्ट्रिय संसदीय निर्वाचनाय मतदानं भविष्यति. मतदानम् अद्य प्रातः 7:30 आरप्स्यते तथा सायं 4:15 यावत् 99+200 निर्वाचन क्षेत्राणां 97+740 केन्द्रेषु प्रचलिष्यति. शेरपुरत्री इत्यत्र एकस्य प्रत्याशिनः निधनानन्तरं मतदानं स्थगितं जातम्. निर्वाचनायोगेन संसूचितं यत् 77,12,00,000 मतदातारः सन्ति. सम्पूर्णे अपि देशे सैन्येन समर्थिताः प्रायः 58,00,000 विधि प्रवर्तन कर्मचारिणः नियुक्ताः सन्ति. आईसीसी पुरुष विंशति प्रतिविंशति क्रिकेट विश्व चषक क्रीडायां वेस्ट इंडीज दलेन ह्यः रात्रौ मुम्बय्याः वानखेड़े क्रीडांगणे ग्रुप सी इत्येतस्य द्वन्द्वे इंग्लैंड दलं 33 पराजितम्. अद्य भारतं सायं 7 दिल्ल्याः अरुण जेटली क्रीडांगणे नामीबिया दलं सम्मुखीकरिष्यति. तत्रैव श्रीलंका दलं प्रातः 11 बालगौला इत्यत्र ओमान दलं सम्मुखीकरिष्यति. सहैव मध्याहे 3 नेपाल दलं इटली दलं सम्मुखीकरिष्यति इति वार्ताः.